गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिः सर्वज्ञस्त्वं सह मुसलिना सर्वविद्याः गृहीत्वा पुत्रं नष्टं यमनिलयनात् आहृतं दक्षिणार्थं दत्त्वा तस्मै निजपुरमगाः नादयन् पाञ्चजन्यं स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः कारुण्येन त्वमपि विवशः प्राहिणोः उद्धवं तं किञ्च अमुष्मै परमसुहृदे भक्तवर्याय तासां भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् त्वन्माहात्म्यप्रथिमपि शुनं गोकुलं प्राप्य सायं त्वद्वार्ताभिः बहुसरमयामास नन्दं यशोदां प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्षः श्रुत्वा प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं स्मृत्वा स्मृत्वा तव विलसितानि उच्चकैः तानि तानि रुद्धालापाः कथमपि पुनः गद्गदां वाचमूचुः सौजन्यादीन् निजपरभिदामपि अलं विस्मरन्त्यः श्रीमन् किं त्वं पितृजनकृते प्रेषितो निर्दयेन क्वासौ कान्तो नगरसुदृशां हा हरे नाथ पायाः आश्लेषाणाम् अमृतवपुषो हन्त ते चुम्बनानाम् उन्मादानां कुहकवचसां विस्मरेत् कान्त का वा रासक्रीडालुलितललितं विश्लथत्केशपाशं मन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वदङ्गं कारुण्याब्धे सकृदपि समालिङ्गितुं दर्शयेति प्रेमोन्मादात् भुवनमदना त्वत्प्रियाः त्वां विलेपुः एवं प्रायैः विवशवचनैः आकुला गोपिकास्ताः त्वत्सन्देशैः प्रकृतिमनयत् सोऽथ विज्ञानगर्भैः भूयस्ताभिः मुदितमतिभिः त्वन्मयीभिः वधूभिः त्वद्वार्तासरसमनयत् कानिचित् वासराणि त्वत्प्रोद्गानैः सहितमनिशं सर्वतो गेहकृत्यं त्वद्वार्तैव प्रसरतिमिथः सैव च उत्स्वापलापाः चेष्टाः प्रायस्त्वदनुकृतयः त्वन्मयं सर्वमेवं दृष्ट्वा तत्र व्यमुहदधिकं विस्मयात् उद्धवोऽयं राधाया मे प्रियतमम् इदं मत्प्रिया एवं ब्रवीति त्वं किं मौनं कलयसि सखे मानिनि मत्प्रिये वा इत्याद्येव प्रवदति सखि त्वत्प्रियो निर्जने माम् इत्थं वादैः अरमयदयं त्वत्प्रियाम् उत्पलाक्षीं येष्यामिद्राक् अनुपगमनं केवलं कार्यभारात् विश्लेषेऽपि स्मरणदृढतासम्भवात् मास्तु खेदः ब्रह्मानन्दे मिलति न चिरात् सङ्गमो वा वियोगः तुल्यो वा स्यात् इति तव गिरा सोऽकरोत् निर्व्यथास्ताः एवं भक्तिः सकलभुवने नेक्षिता न श्रुता वा किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु इति आनन्दाकुलम् उपगतं गोकुलात् उद्धवं तं दृष्ट्वा हृष्टो गुरुपुरपते पाहि माम् आमयौघात्। ओं तत्सति श्रीमन्नारायणीये षट्सप्ततितमं दशकं समाप्तं। श्रीहरये नमः। रमा रमण गोविन्दा गोविन्दा। श्रीकृष्णार्पणमस्तु।